इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। अथ वार्ताः। प्रधानमन्त्रिणः नरेन्द्र मोदिनः अध्यक्षतायाम् आयोजिता विशेषसभा। प्रधानमन्त्रिणः नरेन्द्र मोदिनः अध्यक्षतायाम् आयोजिते विशेषोपवेशने कैबिनेट कमिटी ऑन सिक्योरिटी इति समितौ विभिन्न मन्त्रालयानां कृतपदानां समीक्षा कृता। पश्चिम एशिया क्षेत्रे वर्तमान संघर्षस्य सन्दर्भे आगामिन्यः कार्ययोजनाः अपि चर्चिताः। प्रधानमन्त्री आवश्यक वस्तूनाम् उपलब्धिम्, कृषिक्षेत्रे उर्वरक प्रबन्धम् च विशेषतया अवलोकितवान्। सः निर्देशितवान् यत् नागरिकाणाम् अस्य संघर्षस्य प्रभावात् रक्षितुम् सर्वेऽपि सम्भव प्रयत्नाः भवेयुः। कृषि, उर्वरक, विमानन, लॉजिस्टिक तथा सूक्ष्म मध्यम उद्योग विषयेषु अपि उपायाः विचारिताः। द्रवीकृत शैला तैलेन्धनस्य एलपीजी इत्यस्य तथा एलएनजी द्रवीकृत प्राकृतिकेन्धनस्य च आपूर्तेः विविधीकरणम्, विद्युत क्षेत्रस्य स्थिरीकरणम् च अपि समीक्षितम्। रक्षा मन्त्रालयेन स्वपूंजी इत्यस्य पूर्णतया उपयोगः कृतः। संशोधित वित्तीय वर्षे 25+ 2000 26 यावत् रक्षासेवानां कृते 1.680 लक्षकोटि रूप्यकाणां व्ययः जातः। नागरिक सेवा निवृत्तिवृत्तिं समेत्य रक्षाव्ययस्य समग्ररूपेण उपयोगः 99.26% अस्ति। नागरिक विमानन मन्त्रालयस्य संयुक्त सचिवः आसंगवा चुबा आओ उक्तवान् यत् प्रशासनेन देशस्य उड्डयन सेवायै ETF इन्धनस्य मूल्येषु 25% सीमित वृद्धेः निर्णयः कृतः, यस्य विमानन उद्योगेन स्वागतं कृतम्। सः अवदत् यत् पश्चिम एशिया संकटेन वैश्विक ऊर्जा आपणेषु अभूतपूर्व वृद्धिः दृश्यते, अतः अयम् विमान उद्योगाय महत्सौख्यं ददाति। नवदिल्ल्यां कृषि विभागस्य अतिरिक्त सचिवा डॉ मनिन्दर कौर द्विवेदी उक्तवती यत् पश्चिम एशिया संकट समयेऽपि वर्षर्तुषस्येभ्यः देशे 85+ 100,000 क्विंटल परिमितानि बीजानि उपलब्धानि सन्ति। प्रधानमन्त्री तथा भारतीय जनता पार्टी इति दलस्य वरिष्ठः नेता नरेन्द्र मोदी असम प्रदेशे गोगामुखम् विश्वनाथम् च जनसभाम् सम्बोधितवान्। गोगामुखे अभवत् यत् निर्धनानाम्, मध्यम वर्गाणाम् जनानाम् च कल्याणम् भाजपा दलस्य सर्वोच्च रूपेण प्राथमिकता विद्यते इदम् प्रधानमन्त्रिणा उक्तम्। केन्द्रीय गृहमन्त्री अमित शाह विधानसभा निर्वाचनात् पूर्व भारतीय जनता पार्टी इति दलस्य प्रचाराय असमं सम्प्राप्स्यति। पश्चिम बंगालस्य मुख्य निर्वाचन अधिकारी राज्ये मतदानस्य अनन्तरं सर्वेक्षणस्य संचालने, प्रकाशने, प्रचारे च पूर्णतया प्रतिबन्धं कृतवान्। रूसस्य उपप्रधानमन्त्री डेनिस मुंटुरावः भारतस्य द्विदिवसीय यात्रायाम् अद्य दिल्लीं सम्प्राप्स्यति। श्री मुंटुरावः विदेशमन्त्रिणा सुब्रह्मण्यम् जयशंकरेण तथा वित्तमन्त्रिणा निर्मला सीतारामनेन सह मेलनं विधास्यति। केन्द्रीय कृषि तथा कृषक कल्याण मन्त्री शिवराज सिंह चौहानः प्रोक्तवान् यत् 21 राज्येषु इदानीं यावत् 7.5 कोटि कृषकाणां परिचयपत्राणि निर्मितानि। हनुमत जयन्ती अद्य सम्पूर्णेऽपि देशे भक्तिभावेन, उत्साहेन च सह आचर्यते। अयम् दिवसः हनुमान जन्मोत्सवरूपेण प्रसिद्धः वर्तते। नई दिल्ली इत्यत्र प्राचीन हनुमान मन्दिरे प्रभातात् आरभ्य भक्तानां विशालः समागमः दृश्यते। मन्दिरेषु हनुमान चालीसा इत्यस्य, सुन्दरकाण्डस्य तथा अखण्ड रामायणस्य पाठः भवति। उत्तरप्रदेशे अपि विशेषतः हनुमानगढ़ी मन्दिरे भक्तानां दीर्घपङ्क्तयः दृश्यन्ते। अस्मिन् अवसरे बहुषु स्थलेषु भण्डाराः अपि आयोजिताः। इति वार्ताः।